कवीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनश्रण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धेनामभित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उचोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृणया याते रुद्र शिवात्तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ता विचाकशी यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यता नः सर्वमिज्जगद यक्ष्मगु सुमना असत् अध्यवोच ददि वक्ता प्रथमो दैव्यो भिषक् अहीगश्च सर्वाञ्जम्बयन् सर्वाश्च यातु धान्यः असो यस्ताम्र अरुण उत बभ्रस्व मङ्गलः ये चेवागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृणयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीनुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्चधन्वनस्त्वमुभयोरात्मियोर्जाम् याश्च देहस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु धे निशीर्य शल्याणामुका शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येषव आभुरस्य निषङ्गतिः याते हेतिर्मीरुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वम यक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानातताय विष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। తమో హిరణ్యభావే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమ సస్మే జరాయ త్వషీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ వివ్యాధినేనానాం పతయే నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతావినే క్షేత్రాణాం పతయే నమో నమ సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ ఉచ్చైర్దోషాయ క్రందయతే పత్థీనాం పతయే నమో నమ కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః నమః సమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ ककुभाय निषंगिणे सेनानां पतये नमो नमो निषंगिण इषुधिमते तस्कराणां पतये नमो नमो वंचते परिवंचते स्तायोनां पतये नमो नमो निचेरवे परिचरायारण्यानां పతయే నమో నమ శ్రికావ్యో జిగాగుం సభ్యోముష్ణతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషు మధ్యోన్వావిభ్యశ్చ భో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ భో నమో నమ ఆయచ్ఛద్భ్యో విసృజభ్యశ్చ భో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ భో నమో నమ ఆసీనేభ్య శయానేభ్యశ్చ భో నమో నమ స్వపద్భ్యో జాగ్రభ్యశ్చ భో నమో నమ స్తిష్టభ్యో దావభ్యశ్చ భో నమో నమ సభాభ్యసభావదిభ్యశ్చ భో నమో నమో అశ్వేభ్యోశ్వపదిభ్యశ్చ భో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ భో నమో నమ ఉగణాభ్యస్త్రిగం అదీభ్యశ్చ భో నమో నమో ఘృత్సేభ్యో ఘృత్సపదిభ్యశ్చ భో నమో నమో రాతేభ్యో వ్రాతపదిభ్యశ్చ భో నమో నమో గణేభ్యో గణపదిభ్యశ్చ భో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ భో నమో నమో మహద్భ్యః చుల్లకేభ్యశ్చ భో నమో నమో రతిభ్యో రతేభ్యశ్చ భో నమో నమో రథేభ్యో రథపదిభ్యశ్చ భో నమో నమ సేనాభ్యసేనానిభ్యశ్చ భో నమో నమ శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ భో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ భో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో ధాన్వకృద్భ్యశ్చ భో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ భో నమో నమ శ్వభ్యశ్వపదిభ్యశ్చ భో నమః नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीदुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्वने च नमो अग्र्याय च प्रथमाय च नमः आशमे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धयाय च नमः शोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उत्पर्याय च खल्याय च नमः श्लोक्याय च अवसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरोतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो दृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च वयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्त्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शष्प्याय च भेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ट्याय च गृह्याय च नमः स्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्टाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सौर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आख्यलते च प्रख्यलते च नमो वक्रिकेभ्यो देवानागु हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धलस्पते दरिद्रग्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यदा नश्रमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृति क्षयद्वीराय नमसा विधेमते यच्चञ्चयोश्चमनुरायजे पिता तदश्यामतव रुद्रप्रणीतौ मानो महान्तमुतमान अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामिदो वदेर् अविश्वन्तो नमसा विधेमते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुन्नमस्मेते अस्तु रक्षा च नो अधि च देव ब्रूह्यदा च नः शर्म यच्च विवर्हा सुविश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्नुमुग्रम् मृळाजरित्रे रुद्रस्तवानो आन्यन्ते अस्मन्निवपन्तु सेना परिणो रुद्रस्य हेतर्णक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरामगवद्भ्यस्तनुष्वमीध्वस्तोकायतनयाय मृळया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहे विगिरितमिलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्र अरिभूम्याम् तेषागुम् सहस्रयोजने वदन्वानि तन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवाश्रिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखास कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विवतो जनान् ये पथाम् परिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति शृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयोजने वदन्वानि तन्मसे నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం వాతో వర్షమిషభస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణా దశ ప్రదేచేర్దశోదిచేర్దశోద్వాస్తేభ్యో నమస్తే నో మృణయంతు తేయం విష్మో యశ్చ నో ద్వేష్టితం భోజం భే దధామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వ భువనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యోర్మర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానమయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమష్టుభియస్వశస్వదన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమోర్దేవమసురం దువస్య అయం మే హస్తో భగవానయం మే భగవత్తరః అయం మే విశ్వభేషజోయగుం శివాభిమర్శనః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణు సజోషసే మా వర్ధంతు వాంగిరః జుమ్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసిదిశ్చ మే ధీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే అపానశ్చ మే జ్ఞానశ్చ మే తుశ్చ మే చిత్తం చ మాధీతం చ మే వాచ్య మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మఓజశ్చ మే సహశ్చ మఆయుశ్చ మే జరా చ మఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మే గాని చ మే స్థాని చ మే పరోగుంషి చ మే శరీరాణి చ మే జ్యేష్ఠం చ మఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మేంభశ్చ మే జేమా చ మే మహిమా చ మే పరిమా చ మే ప్రతిమా చ మే వష్మా చ మే ద్రాగుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే ద్విజశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జనిష్యమాణం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుఖం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే క్లృప్తం చ మే క్లృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శరణం చ మే మయశ్చ మే ప్రియం చ మేను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే ज्ञात्रं च मे सोश्च मे प्रजोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवादुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मऔद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्राश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्चं च मे कृष्टपच्चं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति द्राक्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हारियोजनश्च मे हिद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे ಶ್ರುಚಶ್ಚ ಮೇ ಚಮಸಾಶ್ಚ ಮೇ ದ್ರಾವಾಣಶ್ಚ ಮೇ ಸ್ವರವಶ್ಚ ಮೌಪರವಾಶ್ಚ ಮೇ ಋಷಭನೇ ಚ ಮೇ ದ್ರೋಣಕಲಶಶ್ಚ ಮೇ ವಾಯವ್ಯಾನಿ ಚ ಮೇ ಪೂತ ಭೃಚ್ಛ ಮ ಆಧವನೀಯಶ್ಚ ಮ ಆಗ್ನೇಂದ್ರಂ ಚ ಮೇ ಅವಿರ್ಧಾನಂ ಚ ಮೇ ಗೃಹಾಶ್ಚ ಮೇ ಸದಶ್ಚ ಮೇ ಪುರೋಡಾಶಾಶ್ಚ ಮೇ ಪಜದಾಶ್ಚ ಮೇವ ಬೃಹದಶ್ಚ ಮೇ ಸ್ವಗಾಕಾರಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮೇ ಘರ್ಮಶ್ಚ ಮೇರ್ಕಶ್ಚ ಮೇ ಸೂರ್ಯಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಶ್ವಮೇಧಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದಿತಿಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮೇ ಶಕ್ವರೀರಂಗುಲಯೋ ದಿಶಶ್ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಮೃಕ್ಷ ಮೇ ಸಾಮ ಚ ಮೇ ಸೋಮಶ್ಚ ಮೇ ಯಜುಶ್ಚ ಮೇ ದೀಕ್ಷಾ ಚ ಮೇ ತಪಶ್ಚ ಮರುತುಶ್ಚ ಮೇ ವ್ರತಂ ಚ ಮೇ ಹೋರಾತ್ರಯೋರ್ವೃಷ್ಯಾ ಬೃಹದ್ರದಂತರೇ ಚ ಮೇ ಯಜ್ಞೇನ ಕಲ್ಪೇತಾ ಗರ್ಭಾಶ್ಚ ಮೇ ವತ್ಸಾಶ್ಚ ಮೇ ತ್ರಯವಿಶ್ಚ ಮೇ ತ್ರಯವೇ ಚ ಮೇ ದಿತ್ಯವಾಶ್ಚ ಮೇ ದಿತ್ಯೋಹೇ ಚ ಮೇ ಪಂಚಾವಿಶ್ಚ ಮೇ ಪಂಚಾವೇ ಚ ಮೇ ತ್ರಿವತ್ಸಶ್ಚ ಮೇ ತ್ರಿವತ್ಸಾ ಚ ಮೇ ತುರ್ಯವಾಶ್ಚ ಮೇ ತುರ್ಯೋಹೇ ಚ ಮೇ ಪಷ್ಟವಾಶ್ಚ ಮೇ ಪಷ್ಟೋಹೇ ಚ ಮುಕ್ಷಾ ಚ ಮೇ ವಶಾ ಚ ಮೃಷಭಶ್ಚ ಮೇ ಮೇಹಶ್ಚ ಮೇ ನಡ್ವಾಂಶ ಮೇ ಧೇನುಶ್ಚ ಮಾಯುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪ್ರಾಣೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಪಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವ್ಯಾನೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಚಕ್ಷುರ್ಯಜ್ಞೇನ ಕಲ್ಪತಾ ಶ್ರೋತ್ರಂ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಮನೋಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ವಾಗ್ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಆತ್ಮಾ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಯಜ್ಞೋ ಯಜ್ಞೇನ ಕಲ್ಪತಾಂ ಏಕಾ ಚ ಮೇ ತಿಸ್ರಶ್ಚ ಮೇ ಪಂಚ ಚ ಮೇ ಸಪ್ತ ಚ ಮೇ ನವ ಚ ಮ ಏಕಾದಶ ಚ ಮೇ ತ್ರಯೋದಶ ಚ ಮೇ ಪಂಚದಶ ಚ ಮೇ ಸಪ್ತದಶ ಚ ಮೇ ನವದಶ ಚ ಮ ಏಕವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ತ್ರಯೋವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ಪಂಚವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ಸಪ್ತವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ನವವಿಗುಂ ಶತಿಶ್ಚ ಮ ಏಕತ್ರಿಗುಂ ಶಚ್ಚ ಮೇ ತ್ರಯಸ್ತ್ರಿಗುಂ ಶಚ್ಚ ಮೇ ಚತಸ್ರಶ್ಚ ಮೇಷ್ಟೌ ಚ ಮೇ ದ್ವಾದಶ ಚ ಮೇ ಷೋಡಶ ಚ ಮೇ ವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ಚತುರ್ವಿಗುಂ ಶತಿಶ್ಚ ಮೇಷ್ಟಾವಿಗುಂ ಶತಿಶ್ಚ ಮೇ ದ್ವಾತ್ರಿಗುಂ ಶಚ್ಚ ಮೇ ಷಟ್ರಿಗುಂ ಶಚ್ಚ ಮೇ ಚತ್ವಾರಿಗುಂ ಶಚ್ಚ ಮೇ ಚತುಶ್ಚತ್ವಾರಿಗುಂ ಶಚ್ಚ ಮೇಷ್ಟಾ ಚತ್ವಾರಿಗುಂ ಶಚ್ಚ ಮೇ ವಾಯಶ್ಚ ಪ್ರಥವಶ್ಚಾಪಿಜಶ್ಚ ಕ್ರತುಶ್ಚ ಸುವಶ್ಚ ಮೂರ್ಧಾ ಚ ವ್ಯಸ್ನಿಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚಿರಾಲೇ ಬಹೋರ್ಮನುರ್ಯಜ್ಞನೀರ್ಬೃಹಸ್ಪತಿರುಕ್ಥಾಮದಾರಿಷಗುಂಸಿಷದ್ವಿಶ್ವೇ ದೇವಾಸೂಕ್ತವಾಚ ಪೃಥಿವಿಮಾಧರ್ಮಾ ಮಾಹಿಗುಂಸೀರ್ ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುವಕ್ಷ್ಯಾಮಿ ಮಧುವದಿಷ್ಯಾಮಿ ಮಧುಮತೀ ದೇವೇಭ್ಯೋ ವಾಚ ಮುದ್ಯಾಸಗುಂ ಶುಶ್ರೂಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯಸ್ತಂ ಮಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋನು ಮದಂತು ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ತತ್ಸಂಯೋರಾವೃಣೀಮಹೇ ದಾತುಯಜ್ಞಾಯ ದಾತುಯಜ್ಞಪತಯೇ ದೇವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शरण्यो अस्तु द्विपदे चञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येशानः यदन्येनातिरोहते एतावारस्य महिमा अधोज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोद्भवुदैपुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वम् व्यक्रामत् साशनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्याद्भो विमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्मरिद्मशरधवे सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवायद्यज्ञम् तन्वानाः अवध्रम् पुरुषम् पशुम् तञ्यज्ञम् वरेषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्चये तस्माद्यज्ञात् सर्वहुतः संहृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्चये तस्माद्यज्ञात् सर्वहुतः ऋजसामानिजज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यधुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादतः गावो अजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् यदधुः कदिधा व्यकल्पयन् मुखम् किमस्य तौ बाहो तावूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः ऊरो तदस्य यद्वैश्वः पद्भ्यागुम् शूद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिम् दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः ता ಯಾನಿ ಧರ್ಮಾನಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ತೇಹನಾಕಂ ಮಹಿಮಾನಸ್ಸಜಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾಸಂತಿ ದೇವಾಃ ಅದ್ಯ ಸಂಭೂತ ಪೃಥಿವ್ಯೇರಸಾ ವಿಶ್ವಕರ್ಮಣ ಸಮವರ್ತತಾದಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನ್ ಅಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯ ಪಂಥ ವಿದ್ಯತೆ ಯನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ಮೇಧಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ಋಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಹೇಷ್ಯತೆ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ನ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾಪ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾನಾ ಅಮುಂ ಮನಿಷಾನಾ ಸರ್ವಂ ಮನಿಷಾನಾ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ದಾತುಯ್ಯಜ್ಞಾಯ ದಾತುಯ್ಯಜ್ಞಪತಯೇ ದೈವೇ ಸ್ವಸ್ತಿರಸ್ತು ನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿದಾತು ಭೇಷಜಂ ಶರಣೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶರಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ಮೇ ಕಣ್ವೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾಹತಃ ಕ್ರಿಮೇನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗುಸ್ತಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತಾ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯಾ ಶ್ರುತಸ್ಯ ವಿಶೋ ಯಥಾ ತತ್ಸತ್ಯಂ ಯಯಮುಯ್ಯವಸ್ಯ ಜಂಭಯೋ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖಣ್ಫಣ್ವಸೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಭದ್ರಂ ಕರ್ಣೇ ವಿಶೃಣುಯಾಮ ದೇವಾ ಭದ್ರಂ ಪಶ್ಯೇಮಾಶ್ರಭಿರ್ಯಜತ್ರಾಃ ಸ್ಥಿರೈರಂಗೈ ಸುಷ್ಟುವಾಗುಂಸ್ತನೋಭಿ ವ್ಯಸೇಮ ದೇವಹೃತಂ ಯದಾಯುಃ ಸ್ವಸ್ತಿ ನ ಇಂದ್ರೋ ವೃದ್ಧಶ್ರವಾಃ ಸ್ವಸ್ತಿ ನ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿ ನಸ್ತಾರ್ಕ್ಷೋ ಅರಿಷ್ಠನೇಮಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದಧಾತು ಓಂ ಶಾಂತಿ 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 ಓಂ ನಮಸ್ತೆ ಗಣಪತಯೆ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ತತ್ವಮಸಿ त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् हृतम् वच्मि सत्यम् वच्मि अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवालोचानमवशिष्यम् अवपश्चात् अवपुरस्तात् अवोत्तरातात् अवदक्षिणातात् अवचोर्ध्वातात् अवाधरातात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाद्वितीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् तत्त्वो जायते सर्वम् जगदिदम् तत्तस्तिष्ठति सर्वम् जगदिदम् त्वैलयमेष्यति सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिरापो नलो निलो नभः त्वम् चत्वारि वात्पदानि त्वम् गुणत्रयातीतः त्वम् अवस्थात्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वाम् योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विश्वस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्मभूर्भुवस्सुवरो गणादिम् पूर्वमुच्चार्य वर्णादीम् तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् ककारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्त्यरूपम् बिन्दुरुत्तररूपम् नादः सन्धानम् सगुंहिता सन्धिः सैषा गणेश विद्या गणक ऋषिः निजगायत्री छन्दः गणपतिर्देवता ॐ गङ्गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ते प्रचोदयात् एकदन्तम् चतुर्हस्तम् पाशमङ्कुशधारिणम् रदम् च वरदम् हस्तेर्बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवाससम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पै सुपूजितम् भक्तानुकम्पिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च सृष्ट्यादो प्रकृते पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्ते अस्तु लम्बोदरायकलन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः एतदथ सर्वशीर्षं योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधियानो दिवसकृतं पापं नाशयति प्रातरधियानो रात्रिकृतं पापं नाशयति सायं प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधियानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्दति इदमथर्वशीर्षवशिष्यायन देयम् यो यदि मोहाद्धास्यति स पापीयान् भवति सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्नि भवति चतुर्थ्यामनश्यं जपति स विद्यावान् भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति यो दूर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो राजैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यस्तमिद्धिर्यजति स सर्वं लभते स सर्वं लभते अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यमायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति एवं वेदा इत्युपनिषत् भद्रं कर्णे विश्रुणयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः सुष्णुवागुं सस्तनोभिः यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः ॐ अग्निर्मे वाचिश्रितः वाग्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणे वायुमे प्राणे श्रितः प्राणो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणे सूर्यो मे चक्षुषि श्रितः चक्षुर्हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणे चन्द्रमा मे मनसि श्रितः मनो हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणे दिशो मे श्रोत्रे श्रिताः श्रोत्रगुं हृदये हृदयं मयि अहममृते अमृतं ब्रह्मणे आपो मे रेतसि श्रिताः रेतो हृदये హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పృథివీ మే శరీరే శ్రుతా శరీరం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఓషధి వనస్పతయో మే లోమసుశ్రుతా లోమాని హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఇంద్రో మే బలే శ్రుతః బలగుం హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పర్జన్యో మే మూర్ధ్ని శ్రుతః మూర్ధా హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఈశానో మే మన్యౌ శ్రుతః మన్యుర్హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి ఆత్మా ఆత్మని శ్రుతః ఆత్మా హృదయే హృదయం మయి అహమమృతే అమృతం బ్రహ్మణి పునర్మ ఆత్మా పునరాయురాగాత్ పునః ప్రాణ పునరాగూతమాగాత్ వైశ్వానరో రశ్మిభిర్వావృధానః అంతస్తిష్టత్వమృతస్య గోపాః ఓం శాంతి శాంతి శాంతిః ఈశాన సర్వవిద్యానాం ఈశ్వర సర్వభూతానాం బ్రహ్మాధిపతిర్బ్రహ్మణోధిపతి బ్రహ్మ శివో మే అస్తు సదాశివం తద్విష్ణోర్పరమం పదవం సదా పశ్యంతి సూరయః దివేవ చక్షురాతతం తద్విప్రాసో విపన్యవో జాగ్రవాగుం తత్సవిందతే విష్ణోర్యత్ పరమం పదం నారాయణాయ విద్మహే వాసుదేవాయ ధీమహి తన్నో విష్ణు ప్రచోదయాత్ తత్పురుషాయ విద్మహే మహాదేవాయ ధీమహి తన్నో రుద్ర ప్రచోదయాత్ ఓం సాయేశ్వరాయ విద్మహే సత్యదేవాయ ధీమహి తన్న సర్వ ప్రచోదయాత్ హంసహంసాయ విద్మహే పరమహంసాయ ధీమహి తన్నో హంస ప్రచోదయాత్ స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహిమహిషా గోబ్రాహ్మణేభ్య శుభమస్తు నిత్యం సమస్తలోకా సుఖినో భవంతు సమస్తలోకా సుఖినో భవంతు సమస్తలోకా సుఖినో భవంతు ఓం శా